आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः आदौ मुख्याः वार्ताः बुद्धपूर्णिमावसरे अद्य केन्द्रीयगृहमन्त्री अमितशाहः लेहनगरस्य जीवत्सल इति स्थाने बुद्धभगवतः पवित्रावशेषाणां प्रदर्शिन्याः अकरोत् उद्घाटनम् भारतप्रशासनेन नागरिकता संशोधननियमाः अधिसूचिताः येन भारतीय विदेशी नागरिक ओसीआई इति पत्रधारकाणां नागरिकता आवेदनानां च सम्बन्धितेषु प्रबन्धेषु नवीनं परिवर्तनं विहितम् पश्चिमबंगालस्य मुख्य निर्वाचनाधिकारी मनोज अग्रवालः अवोचत् यत् ममता बैनर्जी ईवीएम इत्याख्ये छलविषये यत्किमपि आक्षेपं कृतवती तस्य विषयस्य नैवास्ति आधारः विगते अप्रैल मासे भारतस्य वस्तु सेवाकरस्य आहत्य संग्रहः गतवर्षस्य अपेक्षया अस्मिन् वर्षे 8.7% यावत् अधिकम् अस्ति अपि च क्रीडा वार्तासु आईपीएल क्रिकेट क्रीडायाम् अद्य सायं राजस्थान रॉयल्स दलं दिल्ली कैपिटल्स दलेन सह क्रीडिष्यति अथ वार्ताः विशदीकृत्य बुद्ध पूर्णिमावसरे अद्य केन्द्रीय गृहमंत्री अमित शाहः लेह नगरस्य जीवत्सल इति स्थाने तथागत बुद्ध भगवतः पवित्र अवशेषानां प्रदर्शिन्याः उद्घाटनम् अकरोत् अस्मदीय वार्ताहरैः संसूचितं यत् 75 वर्षेभ्यः परम् एते पवित्र अवशेषाः लद्दाख क्षेत्रे प्रत्यागताः सन्ति एषः प्रथमः अवसरः अस्ति यत् भगवतः बुद्धस्य पवित्र अवशेषाः देशस्य अभ्यन्तरे कस्यापि प्रदर्शिन्याः कृते तेषां स्थायि स्थानात् अन्यत्र आनीताः प्रदर्शिन्याः उद्घाटनं विधाय श्रीशाहः लद्दाखवासिनं प्रति स्वीय शुभकामनाः प्राकटयत् गृहमन्त्रिणा उक्तं यत् भगवतः बुद्धस्य ज्ञानं तस्य 25 शतवर्षेभ्यः अनन्तरमपि अद्यत्वे युगे प्रासंगिकं वर्तते एषः केवलं धार्मिकः उत्सवः नैवास्ति अपि तु एकः ऐतिहासिकः पुनर्मेलन समारोहः च वर्तते
मुझे पूरा विश्वास है कि लद्दाख के कारगिल के सभी बुद्ध के अनुयायी और अन्य मतों के अनुयायी भी भगवान बुद्ध के पवित्र अवशेषों से दिव्य अनुभूति का एहसास करेंगे आज यहाँ पर भगवान बुद्ध के पवित्र अवशेषों को लोगों के दर्शन के लिए खुला रखने का कार्यक्रम हो रहा है आज ये एक प्रकार से धार्मिक आयोजन तो है ही मगर एक ऐतिहासिक मिलन भी है
लद्दाखस्य उपराज्यपालः विनयकुमार सक्सेना लद्दाख सांसदः मोहम्मद हनीफा विभिन्नेभ्यः बौद्धमठेभ्यः आगताः रिनपोन्छे च अस्मिन् कार्यक्रमे उपस्थिताः आसन् एषः उद्घाटनसमारोहः बुद्धपूर्णिमोत्सवेन सह सम्पन्नः यत्र मठप्रार्थनाः सांस्कृतिकाः प्रस्तुतयः च अभवन् एते अवशेषाः नवदिल्ल्यां राष्ट्रियसङ्ग्रहालये सुरक्षिताः सन्ति एतेषां प्राप्तिः उत्तरप्रदेशस्य सिद्धार्थनगरमण्डलस्य पिपराहवा स्तूपस्य उत्खननेन अभवत् विश्वस्मिन् हि विश्वे सर्वेभ्यः बौद्ध अनुयायिभ्यः एते केवलं पुरातत्त्व अवशेषाः न अपि तु श्रद्धायाः ज्ञानप्रकाशस्य च जीवन्तप्रतीकाः सन्ति अद्य कृत्स्नेहि देशे सश्रद्धं सहर्षं च बुद्धपूर्णिमा आचर्यते एषः दिवसः न केवलं भगवतः गौतमबुद्धस्य जन्मोत्सवस्य प्रतीकः अस्ति अपि तु अस्मिन्नेव दिने सः बिहारराज्यस्य बोधगयायां महाबोधिवृक्षस्य अधः निर्वाणं प्राप्तवान् अयं दिवसः विश्वस्य सर्वेषां बौद्धानां हिन्दूनां च कृते स्मरणीयः वर्तते अस्मिन्नवसरे राष्ट्रपतिः द्रौपदी मुर्मुः प्रधानमंत्री नरेन्द्र मोदी, केन्द्रीय गृहमंत्री अमित शाह, लोकसभाध्यक्ष ओम बिड़ला च देशवासीभ्य शुभकामना प्रदत्तवंत। राष्ट्रपति द्रौपदी मुर्मू बुद्ध पूर्णिमाया अवसरे नागरिकेभ्य वर्धापनानि यच्छन्ती स्वकीये संदेशे उक्तवती यत् अयं पवित्रः दिवसः भगवतः बुद्धस्य पृथिव्याम् आगमनस्य, ज्ञानोदयस्य, महापरिनिर्वाणस्य च युगान्तकारिणां घटनानां प्रतीकभूतो अस्ति इति। तस्य अनुकम्पया अहिंसायाः, शान्तेः, ज्ञानस्य च अनन्तसन्देशाः सम्पूर्णां मानवजातिम् अविरतं मार्गदर्शयन्ति इति सा अवोचत्। भारत प्रशासनेन नागरिकता संशोधन नियमाः 20-26 इति अधिसूचिताः, येन भारतीय विदेशी नागरिक ओसीआई पत्रधारकाणां नागरिकता आवेदनानाञ्च संबंधितेषु प्रबन्धेषु नवीनं परिवर्तनं विहितम्। गृहमन्त्रालयेन 2000-तमवर्षस्य नागरिकता नियमेषु संशोधनं कृत्वा राजपत्रादिधिसूचनायाः माध्यमेन एतानि परिवर्तनानि सूचितानि। मन्त्रालयेन स्पष्टीकृतं यत् कोऽपि अल्पवयस्कः बालकः कस्मिन्नपि काले भारतीयपत्रेण सह अन्यस्य कस्यापि देशस्य पत्रं धारयितुं नैव शक्नोति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र, अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। पश्चिम बंगालस्य मुख्य निर्वाचन अधिकारी मनोज अग्रवालः अवोचत् यत् ममता बैनर्जी ईवीएम इत्याख्ये छल विषये यत्किमपि आक्षेपं कृतवती तस्य विषयस्य आधारः नैवास्ति। सः अवदत् यत् मतगणना केन्द्रेषु सीसीटीवी माध्यमेन अहोरात्रम् अविरतं च निरीक्षणं प्रचलति, पर्याप्तं केन्द्रीय बलं च नियुक्तमस्ति, अतः तत्र दोषस्य अवकाशः नैव वर्तते। विगते अप्रैल मासे भारतस्य वस्तु सेवा करस्य आहत्य संग्रहः 2,42,000-2,00,000 रूप्यतोप्यधिकं वर्तते, यदि ऐतिहासिकं कीर्तिमानम् अस्ति। गतवर्षस्य अपेक्षया अस्मिन् वर्षे 8.7% यावत् वृद्धिः अभवत्। अद्य विश्वस्मिन् हि विश्वे अन्ताराष्ट्रिय श्रमिक दिवसः आचर्यते। अयं दिवसः मई दिवसः इति नाम्ना अपि प्रसिद्धः वर्तते। अस्य दिवसस्य मुख्यम् उद्देश्यं विश्वे आर्थिक सामाजिक अधिकारान् प्राप्तुं श्रमिकैः कृतानां त्यागानां प्रति श्रद्धाञ्जलिः अर्पणं च वर्तते। भारतीय नागरिकता संशोधन विषये मन्त्रालयेन स्पष्टीकृतं यत् कोऽपि अल्पवयस्कः ओसीआई पत्रस्य पञ्जीकरणाय अथवा तस्य त्यागाय सर्वाणि आवेदनानि अधुना आधिकारिक जालपुटे एव प्रस्तोतव्यानि भविष्यन्ति। मन्त्रालयेन अभ्युपगतं यत् ओसीआई पत्राधारत्वेन पञ्जीकरणार्थं निर्दिष्टानि प्रपत्राणि केवलं निर्णीते अन्तर्जालपटले एव पूरणीयानि भविष्यन्ति। आईपीएल क्रिकेट क्रीडायाम् अद्य सायं जयपुरस्य सवाई मानसिंह क्रीडांगणे राजस्थान रॉयल्स दलं दिल्ली कैपिटल्स दलं सम्मुखीकरिष्यति। सहैव क्रीडेयं 7:30 भविता। अवधेयास्पदं वर्तते यत् गुजरात टाइटन्स दलं गतरात्रौ अहमदाबाद नगरस्य नरेन्द्र मोदी क्रीडांगणे रॉयल चैलेंजर्स बेंगलुरु दलं 4-2 पराजयत्। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकी इति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः रविवासरे मध्याह्ने 1:30 भविष्यति। भवन्तः सर्वे श्रोतुं प्रभवन्ति इति वार्ताः।